एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। षट्सप्ततितमः राष्ट्रिय प्रजातन्त्र दिवसः यः विभिन्नान् कार्यक्रमान् आयोज्य समायोजितोऽस्ति। राष्ट्रपतेः रामचन्द्र पौडेलस्य उपस्थितौ काष्ठमण्डपस्य टुडीखेलस्थाने आयोजिते विशेष समारोहे प्रधानमन्त्री सुशीला कार्की अस्यैव फाल्गुनमासस्य एकविंशे दिवसे निर्धारित समय एव भयमुक्ते विश्वसनीये च वातावरणे निर्वाचनस्य सुनिश्चयनम् सम्भूतमस्तीति प्रावोचत्। प्रधानमन्त्री कार्की प्रतिनिधिसभायाः सदस्यानां निर्वाचनं स्वच्छे निष्पक्षे शान्तिपूर्णे भयमुक्ते च वातावरणे सम्पाद्य देशः सबल लोकतान्त्रिक स्थायित्वस्य नूतन युगं प्रवेष्टुं प्रयासरतो वर्तते इति उदैरयत्। प्रधानमन्त्री कार्की निर्वाचनाद प्रचितया संसदा सर्वकारेण च लोकतन्त्रम् अतिरिक्तं जीवन्तरूपेण परिणाममुखेन जनोत्तरदायी प्रणाल्या रूपेण च अग्रे वर्धयिष्यते इति विश्वासः धृतोऽस्तीति अगदत्। प्रधानमन्त्री कार्की प्रजातन्त्रस्य प्रतीतिः जनतायाः मुखमण्डलेषु दर्शनीयेति चर्चयन्ति। यूनः तिरस्कृत्य कुत्रापि राष्ट्रे शान्ति न भवति, असन्तोषस्य दमनस्य अपेक्षयापि तस्य सम्बोधनं कृत्वैव राष्ट्रम् अग्रे वर्धितुं शक्नोतीति अकथयत्। प्रधानमन्त्री कार्की लोकतन्त्रं प्रक्रिया एव नास्ति, त्यतः लोकतन्त्रेण परिणामः प्रदातव्य इति निगद्य विदेह शासनस्य आवश्यकताम् न्यश्चिनोत्। समारोहे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधान न्यायाधीशः प्रकाशमान सिंह राउत, राष्ट्रियसभायाः अध्यक्ष नारायण प्रसाद दाहाल, नेपाल सर्वकारस्य मन्त्रिणः, राष्ट्रियसभायाः उपाध्यक्ष विमला घिमिरे, नेपालस्थितानां वैदेशिक कूटनीतिक नियोगानां प्रमुखाः, प्रतिनिधयः, अन्ये उच्चपदस्थाधिकारिणश्च सहभागिनः आसन्। नेकपा एमाले दलेन अस्यैव फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानं प्रतिनिधिसभायाः निर्वाचनं लक्ष्यीकृत्य ह्य दलस्य घोषणापत्रं सार्वजनिकृतं वर्तते। समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षा अस्माकं गन्तव्यमिति मूलसमाघोषेण दलस्य अध्यक्ष केपी शर्मा ओली दलस्य घोषणापत्रं ह्य सार्वजनिकृतवान्। घोषणापत्रस्य सार्वजनिकरण कार्यक्रमे अध्यक्ष ओली देशनिर्माणस्य संकल्पेन एमाले दलेन विगतकालिकानुभवानाम् अभ्यासस्य च कारणेन देशस्य स्थितेः परिवर्तनस्य कार्ये नेतृत्वं ग्रहीष्यते इति न्यश्चिनोत्। अध्यक्षः ओली राष्ट्रियतायाः पक्षे एमाले दलं सदैव दृढम् अस्ति इति प्रस्पष्टीकुर्वन् नीतौ राजनीतौ च स्थिरतायाः अभावे अर्थतन्त्रस्य विकासस्य च गति अवरुध्यते इति उदैरयत्। एमाले दलेन सार्वजनिकृते घोषणापत्रे तत्कालं कर्तव्यानि एकादश कार्याणि, पञ्च आधारभूतानि घोषणानि, समृद्धेः पञ्चविंशतिः नीतिगत कार्याणि चेति सहितेभ्य युव मैलोद्यम शिक्षा स्वास्थ्य सूचना प्रविधीनां क्षेत्रेभ्य अथ च आर्थिक क्षेत्रस्य विकासाय च प्राथमिकता प्रदत्तास्ति। राष्ट्रिय स्वतन्त्र दलेन आगामी प्रतिनिधि सभा सदस्यानां निर्वाचनं लक्ष्यीकृत्य एतद् विक्रमवर्षीयं प्रतिज्ञापत्रं सार्वजनिकृतं वर्तते। कर्णाली प्रदेशस्य सुर्खेतस्थाने दलेन ह्य आयोजितायां सभायां सार्वजनिकृते वाचापत्राख्ये प्रतिज्ञापत्रे राज्य संरचनायाः, अर्थतन्त्रस्य वैद्युत रूपान्तरणस्य, ऊर्जसः, शिक्षायाः, स्वास्थ्यस्य, कूटनीतेः, सुशासनस्य क्षेत्रेषु व्यापकरूपेण नीतिगत परिवर्तनस्य घोषणा विहितास्ति। एवमेव दलेन रूपान्तरणस्य कृते नीतिगत प्रस्थानस्य शतम् आधाराः अपि वाचापत्राख्ये प्रतिज्ञापत्रे समुल्लिखिताः वर्तन्ते। राष्ट्रपादलेन गत भाद्रस्य त्रयोविंश चतुर्विंश दिवसयोः जेएनजी युव समूहस्य आन्दोलनस्य घटनायाः अनुसन्धान प्रतिवेदनस्य पूर्णतः क्रियान्वयनस्य प्रतिबद्धता च व्यक्तास्ति। राष्ट्रपादलेन प्रत्यक्ष निर्वाचित कार्यकारिणः चयनस्य व्यवस्थायाः क्रियान्वयनस्य घोषणा च विहिता वर्तते। साइबा दलेना पूर्ण समानुपातिका संसदीय व्यवस्था सांसदानाम मन्त्रीपदे अवर्तनस्य व्यवस्था निर्दलीय स्थानीय सर्वकारस्य व्यवस्था संविधानस्य संशोधनाय राष्ट्रिय विमर्शनम् चेत्यादयो विषयाः वाचापत्राख्ये प्रतिज्ञापत्रे समुल्लिखिताः वर्तन्ते। नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा नेपाली कांग्रेस दलम सांविधानिक निकायैसह राज्यस्य निकायेषु राजनीतिकावंटनस्य आधारेण पदाधिकारिणां नियुक्तेः प्रवृत्तेः विपक्षे अस्तीति स्पष्टीकृतवान् वर्तते। कांग्रेस दलेन परह्यः सार्वजनिकृतस्य नैर्वाचनिक प्रतिज्ञापत्रस्य विषये ह्य काष्ठमण्डपे आयोजिते प्रश्नोत्तर कार्यक्रमे सभापति थापा परिवर्तनेन कांग्रेस दलेन कस्मिंश्चिद् अपि पदे नियुक्तौ भागस्य अपेक्षा न करिष्यते इति प्रतिबद्धतां व्यक्तवान्। सभापति थापा सांविधानिक नियोगेषु विश्वविद्यालयेषु अन्येषु राज्यस्य निकायेषु च दलनिकटस्थ व्यक्तिनाम् अपेक्षयापि योग्यानां व्यक्तिनां सुनिश्चयनं कृत्वा संस्थागत सुधारस्य कृते कांग्रेसदलेन स्पष्टतया दृढता अभिव्यज्यते इति प्रावोचत्। एवमेव सभापति थापा गठबन्धनस्य राजनीत्या नेपालस्य राजनीति दूषितास्तीत्यतः अतः परं दलस्य मूल्यमान्यतानां विपरीततया गठबन्धनम् संविदाश्च न करिष्येते इति प्रतिबद्धतां व्यक्तवान्। कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी कथम विदमपि मत सर्वेक्षणम् न कर्तुम् संचार माध्यमान् अनुरुणद्धि। दशम निर्वाचन दिवसस्य अवसरे ह्य निर्वाचनायोगेन काष्ठमण्डपे आयोजिते कार्यक्रमे कार्यवाहक प्रमुख निर्वाचनायुक्त भण्डारी मत सर्वेक्षण क्षणस्य कार्यम् निर्वाचनाचार संहितायाः निषिद्ध कार्यमस्तीत्यतः तथा कार्यम् कृतम् सद दण्ड्यन्ते इति प्रत्यादिशत्। निर्वाचनस्य समये सत्य समाचाराणाम् मिथ्या समाचाराणाम् रूपेण मिथ्या समाचाराणाम् च सत्य समाचाराणाम् रूपेण च सम्प्रेषणस्य सम्भावना भवतीत्यतः प्रभावे निपतनेन विनैव प्रतिनिधीनाम् चयनाय असौ मतदातृन् आह्वयत्। सुरक्षायाः उपवेशम् उपविश्य निर्वाचनस्य सुरक्षायाः विषये नीतिः रणनीतिश्च निर्धार्यमाणे स्तः इति च कार्यवाहक प्रमुखायुक्तः भण्डारी तदवसरे असूचयत्। अत्रान्तरे निर्वाचनायोगेन प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य अन्तर्गतम् समानुपातिक निर्वाचन प्रणाल्याः अनुसारेण जायमानस्य निर्वाचनस्य कृते आवश्यकम् अस्थायी मतदातृनामावल्याः संकलनस्य कार्यम् स्थायी मतदान प्रक्रियायाः विषयम् च व्यवस्थितान् कर्तुम् एतद् विक्रमवर्षीयः अस्थायी मतदातृ नामावली सम्बद्धः कार्यविधिः क्रियान्वितो वर्तते। इति समाचाराः।